श्री महामृत्युञ्जयस्तोत्र महामन्त्रस्य श्रीमार्कण्डेय ऋषिः अनुष्ठुप् छन्दः श्रीमृत्युञ्जयो देवता गौरीशक्तिः मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थे जपे विनियोगः चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितं मुद्रापाशमृगाक्षस्रकृपविलसत्पाणिं हिमांशुप्रभम् कोटीन्दुप्रगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलम् कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावये ॐ रुद्रं पशुपतिस्थाणुं नीलकण्ठमुमापतिं नमामि शिरसा देवं किं नो मृत्युः करिष्यति कालकण्ठं कामूर्तिं कालग्निं कालनाशनं नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रभुं नमामि शिरसा देवं किं नो मृत्युः करिष्यति वामदेवं महादेवं लोकनाथं जगद्गुरुं देवदेवं जगन्नाथं देवेशं वृषभध्वजम् गङ्गाधरं महादेवं सर्पाभरणभूषितम् अनाथपरमानन्दं कैवल्यपदगामिनं नमामि शिरसा देवं किं नो करिष्यति स्वर्गापवर्गदातारं सृष्टिस्थितिविनाशनम् उत्पत्तिस्थितिसंहार कर्तारं गुरुमीश्वरं नमामि शिरसा देवम् किं नो मृत्युः करिष्यति मार्कण्डेयकृतं स्तोत्रं यः पठेत् शिवसन्निधौ तस्य मृत्युभयं नास्ति नाग्निचोरभयं क्वचित् नमामि शिरसा देवं किं नो मृत्युः करिष्यति शतावर्तं प्रपत्तव्यं सङ्कटे कष्टनाशनं शुचिर्भूत्वा पठेत् स्तोत्रं सर्वसिद्धिप्रदायकं नमामि शिरसा सादेवं किं नो मृत्यु करिष्यति मृत्युञ्जय महादेव त्राहि मां शरणागतं जन्म मृत्यु जरारोगैः पीडितं कर्म बन्धनैः नमामि शिरसा देवं किं नो मृत्युः करिष्यति तावतस्त्वद्गतप्राणः त्वच्चित्तोऽहं सदा मृड इति विज्ञाप्य देवेशं त्र्यम्बकाख्यां मनुं जपेत् नमामि शिरसा देवं किं नो मृत्युः करिष्यति नमः शिवाय सांबाय हरये परमात्मने प्रणतक्लेशनाशाय योगिनां पतये नमः नमामि शिरसा देवं किं नो मृत्युः करिष्यति नमामि शिरसा देवं किं नो मृत्युः करिष्यति।